गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः विधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतं पुरस्मारणं जायमानमस्ति तत्र इदानीं स्नेहः इति चतुर्विंशतिगुणेषु अन्यतमः तस्मिन् विषये चिन्तनं
महोदय माम् एव न श्रूयते वा सम्यक् सर्वेषां
सम्यक्तया न श्रूयते किं किं पुनः वदतु इत्युक्ते समीचीनतया श्रूयते वा न वा
श्रूयते महोदय श्रूयते
अस्तु स्वामी महोदय स्वामी महोदय अस्तु प्रायः तस्मिन् पार्श्वे क्लेशः अस्ति अस्तु तर्हि अत्र इदानीं स्नेहः इति गुणः ततः पुनश्चिन्तनम् आरम्भणीयम् अस्तु तर्हि कः वदति सत्यभामा भगिनी वदति वा स्नेहः इति गुणस्य लक्षणं किम् इति
आं महोदय चूर्णादीनां पिण्डीभावहेतुः हेतुर्गुणः स्नेहः इति
पुनः एकवारं वदतु भगिनि
चूर्णादिपिण्डीभावहेतुगुणः स्नेहः
चूर्णादीनाम् इति नास्ति चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः
दलद्वयमस्ति चूर्णादिपिण्डीभावः हेतु गुणः
नो दलद्वयं किम् इति समीचीनतया वदतु
चूर्णादिपिण्डीभावहेतुः अपि च गुणम्
तर्हि लक्षणं वक्तव्यं चेत् तत्र आधेय भावत्वेन वक्तव्यं खलु
चूर्णादिपिण्डिभावहेतुत्वे सति गुणत्वं स्नेहस्य लक्षणं
उत्तमं तर्हि अत्र चूर्णादिपिण्डीभावहेतुत्वम् इति समस्तपदमस्ति तस्य विग्रहवाक्यं वदतु
चूर्णादिपिण्डीभावस्य हेतुः चूर्णादीनां पिण्डीभावस्य हेतुः इति भवन्ति
न न अत्र विग्रहवाक्यं प्रत्येकम् अत्र पदद्वयं स्वीकृत्य
आं महोदय आदि इति अस्ति चूर्णादीश्च पिण्डीश्च भवति न अवगतं महोदय तत् कथं वक्तव्यम्
अस्तु श्रीराममहोदय
तत्र अहं चिन्तयामि चूर्णादीनां
श्रीराममहोदय वदतु श्रीराममहोदय वदतु
चूर्णादीनां पिण्डीभावः चूर्णादीनां पिण्डि
चूर्णं चूर्णादि इति अस्ति खलु तद् समस्तपदं वा न वा
चूर्णः आदिः येषाम् इति बहुभि येषां तत् अथवा सः इति अहं चिन्तयामि
पुनः वदतु
चूर्णः आदिः येषाम्
उत्तमं चूर्णः आदिः येषां ते
ते येषां ते
येषाम् इति बहुवचने अस्ति खलु तर्हि तत् चूर्णादि इति भवति बहुव्रीहि षष्ठी अस्तु तदनन्तरम् इदानीं चूर्णादि तदनन्तरं
पिण्डीभावः इति अस्ति
एकनिमिषं पिण्डीभावः इत्यत्र पदद्वयमस्ति वा एकमेव पदमस्ति वा
तत्रापि अस्ति अस्तु तादृशं न चिन्तितवान् अस्तु समीचीनं पिण्डी पिण्डित्वम् इति भावः वा पिण्डित्वम् इति भावः वा
अत्र पिण्डी इति पदस्य अन्ते कः प्रत्ययः
लुक् लुक् यद् कीदृश विशिष्टसमासः अस्ति एतत् तद् शुक्लीकरोति तादृशं वा महोदय पिण्डी भावः
उत्तमम्
तादृश पिण्डि तस्य विग्रहवाक्यम् इदानीं न स्मरामि तादृश कथं भवति
अस्तु अत्र कः प्रत्ययः अस्ति
महोदय जानामि महोदय
भवान् भवतु तावदागतं खलु शुक्लीकरोति तावत् तर्हि रमेश महोदय वदतु
भावः इति भावः इति प्रत्ययस्य अधुनं वा महोदय पिण्डी इति शब्दस्य वा
अत्र पिण्डी भावः इति अस्ति तस्य रूपं कथं वक्तव्यं तस्मिन् विषये वदतु पिण्डी इति शब्दस्य अन्ते कः प्रत्ययः अस्ति
प्रायः ङी ङी प्रत्ययः अस्ति ङीप् ङीष्
नास्ति
नास्ति वा
वर्षा भगिनी
शुक्लीकरोति अत्र तदेव
अभूत तद्भावं खलु शिवरां महोदय वदतु
किं
महोदय
अणप्रत्ययः भवति पिण्डं करोति इति भाव भू धातु अस्ति तत्र भू भाव
छु छ्वि इति कश्चन प्रत्ययः अधीतं खलु अस्माभिः
छ्वि आमामाम् आमां छ्वि आम्
अभूत तद्भावं यद्भावं नास्ति अशुक्लं शुक्लीकरोति
करोति आमाम्
इत्यत्र तत्र छ्वि इति कश्चन प्रत्ययः अस्ति स च प्रत्ययः कदा विधीयते केन सूत्रेण कदा विधीयते अस्माभिः अधीतं खलु अत्र सूत्रमासीत् अभूत तद्भावे कृद् भू अस्ति योगे सम्पद्यकर्ते छ्विः इति अभूतं यद् यत् पूर्वं नास्ति किन्तु इदानीं जायते तस्य बोद्धुं छ्वि इति प्रत्ययः उपयोग चू चू इति प्रत्ययस्य उपयोगः भवति किन्तु कदा भवति इति चेत् यदि कृ नो चेत् भू नो चेत् अस् धातोः परे धातुः परे अस्ति चेत् अभूत तद्भावे कृ भू अस्ति योगे सम्पदि अकर्तरि च्वि इति अकर्तर्यतः अभूतपूर्वस्य विकारस्य सम्पादनं क्रियते चेत् विकारवाचिशब्दात् कृ भू तथा अस् एतेषां योगे स्वार्थे च्वि इति प्रत्ययः भवति तर्हि तदेव अत्र अस्ति इत्युक्ते पिण्डीभावः अत्र अस्माभिः चिन्तितमपि खलु देवदत्तः अशुक्लं घटं शुक्लीकरोति तत्र शुक्लीकरोति इति मिलित्वा लेखनीयं वा अत्र मध्ये अवधानं दत्त्वा लेखनीयं वा इति तादृशविषयम् अस्माभिः चिन्तितम् शिवरामहोदय स्मरणे अस्ति वा
आम् निलेश महोदयेनापि पाठितमस्ति
हा किन्तु अस्माकम् अष्टाध्यायी प्रवेशवर्गे अपि गते सप्ताहे एव हा अस्मिन्नेव सप्ताहे चिन्तितं खलु शुक्लीकरोति इत्यत्र किमुक्तम् अत्र कृ भृ अस् अस्ति योगे इति सप्तम्या निर्दिष्टमस्ति तर्हि करोति शुक्ली इति यदा कदापि न आगच्छति शुक्लीकरोति इत्येव आगच्छति किमर्थम् इत्युक्ते कृ धातुः वा भू धातुः वा अस् धातुः वा परे भवेत् किन्तु शुक्लीकरोति इत्यत्र अत्र किं समस्तपदं नास्ति, समस्तपदं नास्ति. चूर्णादि तर्हि पिण्डीभाव इति मिलित्वा एव लेखनीयं, किन्तु तत् समस्तः समासः नास्ति. अत्र च्वि इति कश्चन तद्धितप्रत्ययः अस्ति. अस्तु, तर्हि पिण्डीभावः इति मिलित्वा स्वीकरणीयं. भाव इति पदं पिण्डी इत्यस्य परे सर्वदा भवेत्, तदेव निमित्तं, परनिमित्तमपि स्वीकृत्वा. अस्तु, तर्हि इदानीं श्रीराम महोदय अग्रे वदतु. चूर्णादि तावत् प्राप्तं, पिण्डीभाव इति मिलित्वा प्राप्तं.
तदा चूर्णादीनां पिण्डीभावः, चूर्णादिपिण्डीभावः.
उत्तमं, षष्ठी तत्पुरुषः खलु.
तत्पुरुषः अनन्तरं चूर्णादिपिण्डी भावस्य हेतुः, चूर्णादिपिण्डीभावहेतुः इति अस्ति तत्रापि.
सत्यं, तस्य धर्मः चूर्णादिपिण्डीभावहेतुत्वं.
हेतुत्वं सत्यं.
हा, इति यत्र यत्र अत्र समस्तपदं दृश्यते तत्र सर्वत्र एतादृशं चिन्तयामश्चेत् समीचीनबोधः जायते.
Satyam, Madhya.
No, as I was telling somebody else, the words have to talk to you. Yatha vayam pathema, tada tasya arthaha kaha iti shabdaha swayam vaktavyam. Tadrisha chintanam asmaka manasi jayeta. Astu, samichiram. Tarhi satyabhama bhagini, idaniam daladvayam asti. Churnadi pindi bhava hetutve sati gunatvam sinehasya lakshanam. Tarhi idaniam dalatartakyam kurotu. Karotu.
इति चूर्णादिपिण्डीभावहेतुत्वम् इति दलं गुणत्वम् इति दलं त्यजामः चेत् अन्येषु गुणेषु
गुणत्वम् इति त्यजामः वा गुणत्वम् इति एकमेव दलं स्वीकुर्मः वा अन्येषु गुणेषु अतिव्याप्तिः भवति
गुणत्वम् इति एकमेव दलं स्वीकुर्मः चेत्
स्वीकुर्मः चेत् त्यजामः चेत् नास्ति
अन्येषु दलेषु अतिव्याप्तिः भवति
अन्येषु गुणेषु
गुणेषु अतिव्याप्तिः भवति तद् चूर्णादि पिण्डीभावहेतुत्वम् इति दलम् एव स्वीकुर्मः चेत् अत्र कुत्र अतिव्याप्तिः भवति
चूर्णं विना पिण्डीभावः भवति वा
न भवति
हा तर्हि चूर्णमिति समवायिकारणमस्ति खलु चूर्णानाम् एव पिण्डीभावः भवति खलु
अतः तत् निश्चयेन आवश्यकम्
हा तर्हि चूर्णादिषु समवायीकारणेषु अतिव्याप्तिः भवति यदि चूर्णादिपिण्डीभावहेतुत्वम् इति एकमेव दलं स्वीकुर्मः तत्र समवायीकारणे चूर्णादिषु अतिव्याप्तिः भवति तर्हि तन्निवारणाय गुणः अस्तु इदानीं चूर्णादिपिण्डीभावहेतुत्वे सति गुणत्वम् इति दलद्वयं स्वीकुर्मश्चेत् केवलं लक्षणं स्नेहे एव पतति अस्तु अग्रे धन्यवादः भगिनि अग्रे इदानीं वर्षा भगिनी वदतु तस्य वृत्तित्वं स्नेहस्य वृत्तित्वं कुत्र कुत्र
जलम् एव अस्ति तस्य वृत्ति
हा जलमात्रवृत्तिः जलमात्र अत्र मात्रपदं कथम् अवगन्तव्यम्
जलमेव इति अवगन्तव्यम्
तत्र कीदृशसमासः अस्ति
मयूर
उत्तमं मयूरविंसकादिसमासः जलमेव इत्यस्मिन् अर्थे समस्तपदे मात्र इति पदं भवति किन्तु विग्रहवाक्ये एव इति मयूरविंसकादिश्च विंसकादयश्च इति सूत्रेण अस्तु जलमात्रवृत्तिः स्नेहः अस्तु तर्हि पिण्डीभावं प्रति स्नेहाख्यगुणः कीदृशकारणम् इति प्रश्नः
आं महोदय पिण्डीभावः पिण्डीभावं प्रति स्नेहाख्यगुणः निमित्तकारणं भवति. पिण्डीभावः इति पिष्टे वर्तते. स्नेहः इति गुणम् असमवायिकारणं नो चेत् समवायिकारणं न भवितुम् अर्हति. तत् निमित्तकारणमेव भवति.
परिशीलयतु किमर्थं समवायिकारणं न भवति, किमर्थम् असमवायिकारणं न भवति, तत्र लक्षणानि उक्त्वा.
आम् महोदय, स्नेहः गुणः अस्ति, तत् जले वर्तते. अत्र तस्य समवायसम्बन्धेन जले वर्तते. तदनन्तरं जलम् अपि च चूर्णादीनां मध्ये एकः विशिष्टः विलक्षणसंयोगः अस्ति. तत् कारणेन स्व आश्रयसंयुक्तः सम्बन्ध स्व आश्रयसंयुक्तसमवायसम्बन्धेन स्नेहः पिण्डिभावं जनयति. अतः
स्व आश्रयसंयुक्तत्वसमवाय इति भवती उक्तवती खलु, तर्हि अत्र स्वम् इत्युक्ते किं, स्व आश्रयः कः इति एतत् सर्वं प्रतिपादयतु.
आम् महोदय, स्वम् इत्युक्ते तद् गुणमेव स्नेहः. तस्य आश्रयः आश्रयः तु जलं.
स्व आश्रयः इति प्राप्तं.
तस्य संयुक्तं पिष्टम्.
अस्तु, स्व आश्रयसंयुक्तत्वं पिष्टे वर्तते.
पिष्टे वर्तते.
तदनन्तरम्
अतः
समवाय इति किमर्थम् उक्तम्?
हा, दट् इस् राङ्ग् महोदय, दट्स् ऐ वास् थिङ्किङ्ग्. पिष्टे अपि च पिण्डिभावं मध्ये तु समवायसम्बन्धः अस्ति, अत एव मया दोषेण उक्तं. तत् न भवति. स्व आश्रयसंयुक्तत्वसम्बन्धेन पिष्टे स्नेहत्वं वर्तते, समवायसम्बन्धेन पिण्डीभावः पिष्टे वर्तते. अतः परम्परासम्बन्धेन अत्र स्नेहत्वं पिष्टे वर्तते. अतः एव तत् समवायिकारणं नो चेत् असमवायिकारणं न भवितुम् अर्हति.
समीचीनम्. अत्र एतादृशं वक्तुं शक्नुमः. अत्र स्नेहः इति गुणः खलु, गुणः यदा कदापि समवायिकारणं न भवति. वस्तुतः द्रव्यं विना अन्यत् यत्किमपि समवायिकारणं न भवति इति अस्माभिः अधीतं. तर्हि स्नेहः इति गुणः इति उक्तत्वात् समवायिकारणं न भवितुमर्हति, किन्तु असमवायिकारणं भवितुमर्हति. असमवायिकारणस्य लक्षणं किं? यत् समवायसम्बन्धेन कार्यादिकरणे स्थित्वा समवायसम्बन्धेन अत्र कार्यं जनयति इति तादृशसम्बन्धः यत्र अस्ति तदेव समवायिकारणं भवति. किन्तु इदानीं स्नेहः कुत्र अस्ति? जले अस्ति. कार्यं किं? पिण्डीभावः. पिण्डीभावः कुत्र अस्ति? चूर्णादौ पिष्टे अस्ति. जलपिष्टयोः मध्ये कीदृशसम्बन्धः अस्ति? संयोगसम्बन्धः एव अस्ति, न तु समवायः. इति कृत्वा अत्र मध्ये संयोगः आगतः इति कृत्वा समवायसम्बन्धः समवायसम्बन्धः नास्ति संयोगः इति कृत्वा असमवायिकारणमपि न भवितुमर्हति. तर्हि किमर्थं निमित्तकारणमिति वदामः? निमित्तकारणस्य लक्षणं किम्?
साधारणत्रीणि लक्षणानि एव. तत् कारणं कार्यस्थले भवेत्, पूर्वक्षणं भवेत्, अपि च कार्योत्पत्ति समये भवेत्.
तत्तु इदानीं निमित्तकारणं तत्र एकं कारणम् इति वक्तुं निकषा के इति चेत्
कारणं सत्त्वे सति कार्यं
तदपि त्यजतु. इदानीम् अत्र स्नेहः पिण्डीभावं प्रति कारणं वा इति प्रश्ने सति एतादृशचिन्तनं करणम्. अत्र निकषात्रयं पूरितं वा, अन्वयसहचारः व्यतिरेकसहचारः अस्ति वा इति तादृशं चिन्तनीयं। किन्तु मम प्रश्नः यथा समवायिकारणस्य लक्षणं किम् इति चेत् यत् तादात्म्यसम्बन्धेन स्वस्मिन् स्थित्वा समवायेन कार्यं जनयति इति वदामः खलु, एवं निमित्तकारणस्य लक्षणं किम्?
यः समवायी न अस्ति असमवायिकारणमपि न अस्ति तदेव निमित्तकारणम्।
उत्तमम् इति उत्तरं, समीचीनं। यत् समवायीकारणं वा असमवायिकारणं वा नास्ति, तत्सर्वं निमित्तकारणम्, शेषं निमित्तकारणम् इति प्रायः वयमेव सूत्ररूपेण वक्तुं शक्यते। अन्यत् सर्वं निमित्तकारणम्। अस्तु, समीचीनम्। अत्र इतोपि किञ्चित् चिन्तनं कुर्मः। मेहुल् महोदय वदतु, इदानीं पिण्डीभावः इति पदमस्ति खलु, पिण्डीभावः इति पदम् अत्र सप्तपदार्थेषु किं सूचयति? पिण्डीभावः इति
सप्तपदार्थेषु किं सूचयति इति वा? द्रव्यगुणः इति सूचयति इति अहं मन्ये।
पिण्डीभावः इति चतुर्विंशतिगुणेषु अन्यतमः वा?
न, तत्तु नास्ति।
तर्हि गुणः न,
तर्हि किमपि विशेष द्रव्यं नास्ति, गुणः नास्ति, कर्म इति भवितुमर्हति अथवा विशेषः इत्यपि भवितुमर्हति इति अहं मन्ये। कर्म अपि द्रव्यम्, अतः कर्मभावः वयं न पठितवन्तः अधुना कर्म इति अतः
न पठितम्। इदानीमेव वर्षा भगिन्यापि उक्तं, किन्तु तत्र अवधानं न जातम् इति कृत्वा पुनः मया पृष्टम्।
ओ अस्तु,
अस्तु। वर्षा भगिनी वदतु।
पिण्डीभावः समवायेन पिष्टे वर्तते, अतः तस्मिन् पञ्चकारणानि भवितुम् अर्हति। ऐ थिङ्क् क्रिया अस्ति, अतः एव तस्य क्रिया आश्रयः पिष्टः इति।
नास्ति, भवती एव उक्तवती, भवती समीचीनतया उक्तवती, किन्तु भवती भवत्याः वचने महत्त्वं किमिति भवती न अवगतवती इति कृत्वा मया पृष्टम्।
सम्बन्धः इति अस्ति वा महोदय? विलक्षण
न, संयोगसम्बन्धः नास्ति। पिण्डीभावः इत्युक्ते संयोगः एव। पिण्डीभावः कुत्र वर्तते? चूर्णादौ वर्तते खलु, पिष्टे वर्तते। तर्हि चूर्णम् एकं चूर्णम् इत्युक्ते पार्टिकल्स्। तर्हि एकं चूर्णम् अन्येन चूर्णेन, चूर्णमपि द्रव्यम् अन्यत् चूर्णमपि द्रव्यम्, तयोः मध्ये कीदृशसम्बन्धः भवति? संयोगः भवति, किन्तु अत्र सामान्यसंयोगः नास्ति, विलक्षणसंयोगः। सामान्यसंयोगः विलक्षणसंयोगः अनयोः मध्ये कः भेदः महोदय? मेहुल् महोदय वदतु।
अहं मन्ये सामान्यसंयोगः इति तु अनित्यम्, अत्र विलक्षणसंयोगः इति नित्यम् अस्ति वा?
तादृशमपि न वक्तव्यम्। इत्युक्ते यदि नित्यमस्ति तर्हि यदा पिण्डीभावः जायते तदनन्तरं तस्य नाशः एव न कर्तुं शक्यते खलु।
तर्हि विलक्षणसंयोगः इति व्यापारः अस्ति, अतः कार्यमपि जनयति, तस्य कारणमपि अस्ति, कार्यमपि जनयति, अतः एतत् विलक्षण।
अत्र एवं चिन्तनं कुर्मः, सामान्यसंयोगस्य एकम् उदाहरणं वदतु।
पक्षी वृक्षयोः मध्ये संयोगः अस्ति,
समीचीनं। पक्षी वृक्षे संयोगसंयोगसम्बन्धेन वर्तते, तर्हि इदानीं वृक्षं प्रति गत्वा पक्षीं स्वीकरोति चेत् वृक्षः अपि आगच्छति वा? नास्ति खलु. घटः भूतले अस्ति. केन सम्बन्धेन? संयोगसम्बन्धेन अस्ति. तर्हि इदानीं भूतलात् घटं स्वीकरोति चेत् भूतलमपि न आगच्छति खलु? भूतलं यत्र अस्ति तत्रैव तिष्ठति, वृक्षः यत्र अस्ति तत्रैव तिष्ठति. किन्तु इदानीं यदा चूर्णेषु पिण्डीभावः जायते तर्हि एकस्मिन् पार्श्वे पिष्टस्य ग्रहणं कुर्मश्चेत् सम्पूर्णपिष्टं हस्ते आगच्छति खलु? इति कृत्वा तत्र किञ्चित् विलक्षणसंयोगः इति उक्तम्. तर्हि पिण्डीभावः इत्युक्ते किम् इति चेत् गुणः एव. गुणः एव. तर्हि कीदृशगुणः इति चेत् संयोगः एव, किन्तु सामान्यसंयोगः नास्ति. अत्र कश्चित् विलक्षणसंयोगः अस्ति येन अत्र धारण आकर्षणशक्तिः भवति द्वयोः मध्ये. अस्तु, इति पिण्डीभावः. तर्हि पिण्डीभावः इति अपि गुणः. अस्तु, तर्हि इदानीं पिण्डीभावः इति गुणः कुत्र जायते?
पिष्टे. पिष्टे जायते.
पिष्टे जायते. तर्हि इदानीं वर्षा भगिनी.
महोदय.
इदानीं स्नेहः केन परम्परासम्बन्धेन चूर्णे पिण्डीभावं कारयति इति वदतु.
केन इत्युक्ते जलेन, जलस्य सम्बन्धेन वा?
न न, अत्र परम्परासम्बन्धः वक्तव्यः, स्व आश्रय इति वक्तव्यम्.
स्व आश्रय संयुक्तत्व सम्बन्धेन
नास्ति. अत्र समीचीनतया चिन्तयतु, इत्यतः एव मया एतत् पृष्टं. स्व इत्युक्ते किम्?
स्नेहत्वं.
स्नेहः स्नेहत्वं नास्ति, स्नेहः इति खलु. अस्तु, स्वम् इति स्नेहः. स्व आश्रयः कः?
जलम्.
स्व आश्रय संयुक्तः कः?
पिष्टः.
तर्हि पिष्टे, तर्हि अत्र स्व आश्रयसंयुक्तत्वं पिष्टे वर्तते. किन्तु अस्माकं लक्ष्यं किं, कार्यं किं? पिष्टः कार्यं नास्ति, कार्यं किम्?
चूर्णादि पिण्डीभावं.
न, कार्यम् इत्युक्ते पिण्डीभावः इति वक्तव्यं खलु.
पिण्डीभावः.
पिण्डीभावः इति गुणः. तर्हि गुणः गुणपर्यन्तं गन्तव्यम्. भवती इदानीं चूर्णं प्रति आगतं. स्व आश्रय संयुक्तत्वं कुत्र अस्ति? चूर्णे अस्ति, न तु पिण्डीभावे. तर्हि पिण्डीभावं प्रति गच्छतु.
अत्र एव मया समवायि इति.
समीचीनं. तर्हि भवती पूर्वं समीचीनतया उक्तवती.
ओके.
किन्तु तावत् स्पष्टता नास्ति इति कृत्वा पुनः पृष्ट्वा, पिण्डीभावः इत्युक्ते किं? विलक्षणसंयोगः इति गुणः. तर्हि स्व आश्रयसंयुक्तसमवायसम्बन्धेन जले विद्यमानस्नेहाख्यगुणः चूर्णे पिण्डीभावं कारयति इति.
इदानीं स्पष्टमस्ति.
उत्तमम्. तर्हि अत्र स्नेहः जले समवायसम्बन्धेन अस्ति, पिण्डीभावः अपि पिष्टे समवायसम्बन्धेन अस्ति. तथापि अत्र मध्ये संयोगसम्बन्धः आगतः इति कृत्वा एव असमवायिकारणं न भवितुमर्हति. एवमेव वदामश्चेत् स्नेहाख्यगुणः समवायसम्बन्धेन जले स्थित्वा समवायसम्बन्धेन पिण्डीभावं पिष्टे कारयति, तर्हि समवायसम्बन्धेन स्थित्वा समवायसम्बन्धेन कारयति इति भाति. अत्र असमवायिकारणम् इति भाति. किन्तु मध्ये चूर्णं नो चेत् पिष्टम् अपि च जलयोः मध्ये समवायसंयोगसम्बन्धः अस्ति इति कृत्वा तत्र न वक्तुं शक्नुमः. असमवायिकारणं न भवति इत्यतः निमित्तकारणम्. बुद्धं खलु? अस्तु तर्हि अत्र अन्यत् अन्यः प्रश्नः मया कृतः, व्यापारः इति किम्? व्यापारः अत्र व्यवहारः इति पदं लक्षणवाक्येषु अस्माभिः दृष्टं, ज्ञानजनकशब्दप्रयोगः, किन्तु इदानीं व्यापारः इत्युक्ते किम् इति स्वामिमहोदय वदति वा?
महोदय
व्यापारः इत्युक्ते किम्?
ओ व्यापारः इत्युक्ते किं महोदय?
हा
महोदय जानामि अहम्।
अस्तु शीरा महोदय वदतु।
कारणात् जायते कार्यं जनयति सः व्यापारः, यः कारणात् जायते कार्यं च जनयति सः व्यापारः।
तर्हि तत्र लक्षणवाक्यत्वेन वक्तव्यं चेत् किम् अस्माभिः पठितम्?
कारण लक्षणवाक्येन स्मरणे नास्ति
स्वजन्यत्वे
सति स्वजन्यजनकत्वं
स्वजन्यत्वे सति स्वजन्यजनकत्वम् एव व्यापारस्य लक्षणम्। अस्तु तर्हि इदानीम् एकम् उदाहरणं वदतु।
तत्र इदानीं कुलालः दण्डेन चक्रभ्रमणं कारयति, तदनन्तरं यदा दण्डस्य नाशः भवति तदापि चक्रभ्रमणं कुलालेन यत् कृतं तेन घटस्य निर्माणं सः निर्माणं करोति चेत् तत्र यद्यपि दण्डनाशः कृतः तत्र चक्रभ्रमणत्वेन एकः व्यापारः तेन तत्र चक्रे कृतः, तेन व्यापारेण घटस्य उत्पत्तिः कुलालः कृतवान्, एवं तत्र चक्रभ्रमणं व्यापारः इति वदामः। तत्र दण्डः दण्डेन चक्रभ्रमणं जातम्, इदानीं चक्रभ्रमणेन तत्र घटस्य उत्पत्तिः अभवत् इति कृत्वा तत्र कार्यता अपि अस्ति कारणता अपि अस्ति चक्रभ्रमणं।
किन्तु लक्षणवाक्यं किं महोदय?
स्वजन्यजनकत्वे सति
स्वजन्यत्वे सति स्वजन्यजनकत्वं
स्वजन्यत्वे सति स्वजन्यत्वे सति जन्यजनक
अस्तु अत्र स्वजन्यत्वे सति स्वजन्यजनकत्वम् इति अस्ति खलु। तर्हि अत्र इदानीं चक्रभ्रमणम् इति व्यापारः इति भवता उक्तं, तर्हि अत्र स्वम् इत्युक्ते किं, स्वजन्यः कः, स्वजन्यजनकः कः इति एतत् सर्वं प्रतिपादयतु।
अस्तु तत्र स्वजन्यत्वे सति जन्यजनकत्वं वा, तत्र स्व इति स्व इति अहं चिन्तयामि दण्डः स्वजन्यत्वे सति जन्यजनकत्वं स्वदण्डः महोदय तेन जन्यः अस्ति तत्र चक्रभ्रमणं स्वजन्यः
स्वजन्यम् अस्ति जन्यं चक्रभ्रमणम् इति
जन्यम् इति
स्वेन जन्यं स्वजन्यम् अत्र तृतीयपुरुषः
स्वेन जन्यं चक्रभ्रमणम् अस्ति इदानीं स्वजन्यं स्वजन्यत्वे सति इदानीं चक्रभ्रमणं जातं तेन इदानीं स्वजन्यत्वे स्वजन्यजनकत्वं स्वजन्यं जन्य स्वजन्यत्वेन जन
अत्रापि स्वम् इत्युक्ते किम्
स्वदण्डः वा महोदय दण्ड जन्यजनकत्वं
अस्तु चिन्तयतु महोदय मेहुल् महोदय किञ्चित् साहाय्यं करोतु अत्र स्वजन्यत्वे सति स्वजन्यजनकत्वम् इति अस्ति तर्हि स्वजन्य इत्युक्ते स्वेन जन्यं स्वजन्यम् इति महोदयेन उक्तं तावत् समीचीनं तदनन्तरं वदतु महोदय
अत्र स्व इति दण्डः स्वजन्यत्वम् इति चक्रभ्रमणम् अनन्तरं स्वजन्यजनकत्वम् इति कपालभ्रमणम् इति अस्ति तेन एव घटः जायते अतः चक्रभ्रमणम् इति व्यापारः भवति तस्य कारणमस्ति दण्डः परन्तु कार्यमस्ति कपालभ्रमणम् अतः कारणात् जायते कार्यं च जनयति अतः चक्रभ्रमणम् इति व्यापारः भवति
अस्तु अत्र लक्षणे द्वितीयदलमस्ति खलु स्वजन्यजनकत्वं तस्य विग्रहवाक्यं वदतु
स्वजन्यजनकत्वम् इति अस्ति तत्र स्वेन जन्य अतः स्वजन्य अपि च स्वजन्यस्य जनकत्वं
जन्यस्य जनकत्वं वा षष्ठी वा
स्वजन्ये जनकत्वम्
अत्र त्वम् इति इदानीं त्यजतु त्वम् इति अनन्तरं योजयामः जनक तावत् पर्यन्तं वदतु
स्वजन्यजनक तर्हि स्वजन्यः स्वजन्यः जनकः इति स्वजन्येन जनकः स्वजन्यः जनकः इति एव भवति स्वजन्यः जनकः स्वजन्यजनकः इति अहं मन्ये
इत्युक्ते कर्मधारयः वा
आम् इति अहं मन्ये स्वजन्य इत्युक्ते किमपि चक्रभ्रमणम् इति अस्ति तत् जनकः भवति कपालभ्रमणस्य अतः स्वजन्यः जनकः
स्वजन्यश्च स्वजन्यं च असौ जनकं च खलु
तदेव
इत्युक्ते स्वं जन्यः अपि जनकः अपि
तदेव जन्यः अपि जनकः
स्वजन्यश्च असौ जनकश्च स्वजन्यजनक तादृशभावः स्वजन्यजनकत्वं तर्हि चक्रभ्रमणं स्वजन्यम् इत्युक्ते चक्रभ्रमणम् इदानीं चक्रभ्रमणमेव जनकः कस्मिन् प्रति कं प्रति कस्मिन् प्रति इति नास्ति कं प्रति
कपालभ्रमणं प्रति
कपालभ्रमणं नो चेत् कपालसंयोगः इति अपि वक्तुं शक्यते कपालभ्रमणम् इति एव स्वीकुर्मः कपालभ्रमणेन संयोगः क्रियया एव संयोगः जायते खलु तर्हि कपालभ्रमणम् इति कृत्वा इदानीं चक्रभ्रमणं व्यापारः अस्ति स्वजन्यत्वं दण्डजन्यत्वं चक्रभ्रमणे अस्ति दण्डेन यद् जायते सः जनकः अपि इति कृत्वा स्वजन्यजनकत्वम् अपि चक्रभ्रमणे अस्ति समीचीनम् इति कृत्वा स्वजन्यत्वे सति स्वजन्यजनकत्वं चक्रभ्रमणे अस्ति इति कृत्वा अत्र चक्रभ्रमणं व्यापारम् इति स्वीकृतं यथा वर्षा भगिन्या प्रतिपादितम् अत्र दण्डः नष्टः जातः इत्युक्ते चक्रभ्रमणं दण्डेन कारितं किन्तु घटस्य उत्पादनात् पूर्वमेव येन केनापि कारणेन दण्डस्य नाशः जातः तर्हि कार्यादिकरणे कार्योत्पत्तेः पूर्वक्षणे दण्डः यद्यपि नास्ति तथापि दण्डः कारणमेव कथम् इति चेत् अत्र व्यापारः व्यापारं कारितवान् खलु दण्डः इति कृत्वा यद्यपि पूर्वक्षणे दण्डः नास्ति तथापि तस्मिन् कारणत्वम् अस्ति एव इति निरूपयितुम् अत्र व्यापारः इति कश्चन कल्पना कृता काचन कल्पना कृता अस्तु तर्हि किमर्थं कः वदति अस्तु मेळ् महोदय भवानेव वदतु किमर्थमत्र स्नेहविषये व्यापारविषये चिन्तनं कृतम् अत्र किमपि सम्बन्धः अस्ति वा इत्युक्ते हा वदतु
अत्रापि स्नेहस्य पिण्डिभावं प्रति निमित्तकारणम् इति वयम् उक्तवन्तः तर्हि तत्र स्नेहः इति कारणं भवति पिण्डिभावः इति कार्यं भवति स्नेहः इति वयं दृष्टवन्तः स्व आश्रयसंयुक्तत्वसम्बन्धेन पिष्टे पिण्डिभावः जनयति अतः स्नेहः इति कारणं पिण्डिभावः इति कार्यम् अधुना अग्रे अपि दृष्टवन्तः पिण्डिभावः यदा जायते पिष्टे तर्हि एकस्मिन् देशे एव पिष्टं स्वीकृत्य सम्पूर्णपिष्टः हस्ते आगच्छति अतः तत्र धारणाकर्षः इति कार्यं भवति अतः पिण्डिभावः इति पुनः कारणमपि भवति धारणाकर्षण इति कार्यं प्रति अतः पिण्डिभावः इति अपि व्यापारः भवति
अस्तु अत्र पिण्डिभावः इति व्यापारः वा
आम् इति अहं मन्ये तत् कारणात् जन जायते अपि च कार्यमपि जनयति
किं कार्यं जनयति पिण्डिभावः
धारणाकर्षणम् इति कार्यं जनयति
उत्तमं धारणाकर्षणम् इति क्रिया खलु धारणम् आकर्षणम् इति क्रिया तर्हि तां क्रियां प्रति पिण्डीभावः कारणं तस्य कारणत्वं कथं निरूपणीयम् इति चेत् अत्र व्यापारत्वं कल्पनीयमस्ति तर्हि अत्र इदानीं व्यापारस्य लक्षणं किं स्वजन्यत्वे सति स्वजन्यजनकत्वं तर्हि अत्र निरूपयतु पिण्डीभावः इति व्यापारः इति चेत् अत्र लक्षणवाक्यं निरूपयति स्वम् इत्युक्ते किं
तर्हि तत्र स्वजन्यत्वे सति स्वजन्यकत्वम् इति अस्ति
स्वजन्यजनकत्वम्
इति एव तर्हि तत्र स्व इत्युक्ते पिण्डिभावः स्वजन्य इति इत्युक्ते धारणाकर्षणः तर्हि स्वजन्यजनकत्वम् इति धारणाकर्ष नो नो तत् नास्ति स्व इति स्नेहः भवति स्व इति स्नेहः स्वजन्य इत्युक्ते पिण्डिभावः स्वजन्यजनकत्वम् इति अपि पिण्डिभावे अस्ति
स्वजन्यजनकत्वं पिण्डिभावे अस्ति तेन किं कार्यं जायते पिण्डिभावेन
हा तेन धारणाकर्षणम् इति क्रिया जायते
उत्तमम् इति कृत्वा पिण्डीभावः अत्र व्यापारत्वेन किन्तु स्नेहः पिण्डीभावस्य कारणम् इति वक्तुम् अत्र व्यापारः नास्ति खलु
आं
व्यापारत्वस्य आवश्यकता नास्ति
सत्यं सत्यम्
अत्र केवलं सम्बन्धः एव उक्तः तर्हि सम्बन्धः कः महोदय
कयोः मध्ये पिण्डीभावः अपि
केन सम्बन्धेन स्नेहः पिण्डीभावं जनयति
ओ अस्तु, केन सम्बन्धेन स्नेहः जनयति? वयं दृष्टवन्तः स्व आश्रयसंयुक्तत्वसम्बन्धेन पिण्डिभावः जनयति पिष्टे.
न, अत्र स्व आश्रयसंयुक्तत्व इति सम्बन्धेन किं कस्मिन् अस्ति?
स्नेहः पिष्टे अस्ति.
तर्हि पिष्टं प्रति एव प्राप्तम् इदानीम्.
ओ आम् सत्यं, हा अग्रे समवायः.
स्व आश्रयसंयुक्तत्वसम्बन्धेन स्नेहः, जले विद्यमानस्नेहः पिष्टे आगतं, किन्तु कार्यं जनयति खलु. तर्हि तावद् वक्तव्यं चेत् इत्युक्ते स्व आश्रयसंयुक्तत्वसम्बन्धेन स्नेहः, जले विद्यमानस्नेहः पिष्टे स्थित्वा पिष्टे समवायसम्बन्धेन कार्यं जनयति, किन्तु इदानीं स्नेहम् आरभ्य पिष्ट पिण्डीभावं प्रति गन्तव्यं, तत्र इतोपि समवेतम् इति वक्तव्यं, नो चेत् समवायः इति वक्तव्यं, वस्तुतः समवेतम् इति वक्तव्यम्.
हा समवेतं, स्व आश्रयसंयुक्तत्वसमवेतं समवेतत्वसम्बन्धेन
द्वयोः मध्ये समवेतसम्बन्धः अस्ति इति, किन्तु केन सम्बन्धेन कार्यं जनयति इति चेत् स्व आश्रयसंयुक्तत्वसम्बन्धेन एव कार्यं जनयति. स्नेहः अपि च पिण्डीभावः, द्वयोः मध्ये कः सम्बन्धः? यथा घटः भूतलं, द्वयोः मध्ये कः सम्बन्धः इति चेत् संयोगः इति वदामः, तथा स्नेहः पिण्डीभावः अनयोः मध्ये कः सम्बन्धः इति चेत् स्व आश्रयसंयुक्त संयुक्तसमवेतसम्बन्धः इति वक्तव्यम्. संयुक्ते समवेतमस्ति पिण्डीभावः इति कृत्वा, किन्तु केन सम्बन्धेन कार्यं जनयति? तत्र कारणतावच्छेदकसम्बन्धः इति किम् इति चेत् स्व आश्रयसंयुक्तसंयुक्तत्वसम्बन्धमेव कारणतावच्छेदकसम्बन्धः. कार्यतावच्छेदकसम्बन्धः समवायसम्बन्धः. किमर्थं समवायः इति चेत् पिण्डीभावः इति गुणः विलक्षणसंयोगः अस्ति, विलक्षणसंयोगः पिष्टे समवायसम्बन्धेन अस्ति इति कृत्वा. अस्तु, समीचीनचिन्तनं जातम्. अस्तु, अत्र एकं वाक्यमस्ति 116th पेज् मध्ये अन्तिमपरिच्छेदे, इदानीमेव मया दृष्टम्, इत्युक्ते न्यायबोधिनी ग्रन्थे नव्यमत उपन्यासे स्नेहस्य पिण्डीभावं प्रति कारणत्वं निराकृत्य स्नेहस्वीकारे एव कटाक्षितः इति लिखितम्. तस्मिन् विषये यः कोऽपि वदतु, यः जानाति किमर्थं नव्यमते स्नेहः इति गुणः न स्वीकृतः इति.
तत्र महोदय अग्रे दत्तं तत्र स्नेहः इति चक्षुरादिभिः इन्द्रियैः न ज्ञातुं शक्नुमः, तस्य विग्राहकता इत्युक्ते रूपस्पर्श इति सङ्ख्यादिषु तत्र ग्राहकता अस्ति, परन्तु स्नेहः इति किमपि चक्षुषा अथवा त्वचा तस्य ग्रहणं न कर्तुं शक्नुमः, अतः केवलम् अनुमानेन एव पिण्डीभावरूपकार्यस्य विशेषण स्नेहः अस्ति इति एव अनुमानं कृतवन्तः, अतः ते न स्वीकुर्वन्ति इति अहं मन्ये.
न, अनुमानेन निरूपयितुं शक्यते चेत् न स्वीकरोतु, अनुमानमपि प्रमाणमेव खलु.
आं, तत् सत्यम्.
इत्युक्ते चतुर्विंशतिगुणाः ये सन्ति ते सर्वे अत्र प्रत्यक्षेण ज्ञायते इति नास्ति. अत्र आद्यपतन कारणं किम्? आद्यपतनस्य गुरुत्वं कथं ज्ञायते? अनुमानेनैव ज्ञायते खलु, प्रत्यक्षेन न ज्ञायते खलु. किन्तु तद् अस्ति गुणेषु अन्यतमः अस्ति गुरुत्वं, यदि गुरुत्वमिति न स्वीकुर्मः तर्हि आद्यपतनं न भवति इति तस्य अङ्गीकारः कृतः नव्यैः, किन्तु अत्र किमर्थं त्यक्तम्? अनुमानेन ज्ञायते, अत्र प्रत्यक्षेण न ज्ञायते इति कृत्वा त्यक्तम् इति न वक्तव्यम्.
तदेव अहं तत्र लिखितुम् इति मन्ये, अन्यत् चिन्तनं नास्ति.
अस्तु, अन्येषां चिन्तनं किम्?
महोदय, अनुमानविषये किञ्चित् अहं प्रयत्नं कृतवान, तत्र मम क्लेशः आसीत् महोदय, कथम् अनुमानं कुर्मः इति. इदानीं तत्र पक्षः साध्यं हेतु कारणम् इति स्वीकरणं, तत्र पक्षः पिष्टः इति स्वीकुर्मः वा अथवा जलम् इति स्वीकुर्मः महोदय?
अस्तु, अत्र पक्षः कः? अस्माकं सामान्य उदाहरणं किम् अनुमानवाक्यं?
तत्र पर्वते वह्नि अस्ति, इदानीं तत्र धूपं दृष्ट्वा वयम् अनुमानं कुर्मः पर्वते वह्नि अस्ति इति.
सत्यं, तर्हि धूमः यस्मिन् अस्ति, हेतुः यस्मिन् अस्ति, सः एव पक्षः खलु? अत्र धूमः इति हेतुः, सः धूमः कुत्र अस्ति? पर्वते अस्ति इति कृत्वा तर्हि हेतुमान् भवेत् पक्षः. पक्षः कः इति चेत् हेतुमान्.
तत्र स्नेहः इति साध्यम् अस्ति, तदा जले जलमेव पक्षः भवति, तत्र स्नेहत्वम् इति
न न अत्र हेतुमान् इति उक्तवान् खलु. पक्षः कः? हेतुमान् अस्ति, पक्षः हेतुमान् अस्ति, अपि च साध्यवान् अपि सः, इत्युक्ते पर्वते एव धूमः अपि अस्ति, वह्निः अपि अस्ति, किन्तु धूमः साक्षात् दृश्यते, प्रत्यक्षेन दृश्यते, किन्तु वह्निः न दृश्यते तावदेव.
अत्र पिष्टे वयं तत्र धारणम् अथवा पिण्डीभावं स्वीकुर्मश्चेत् तदेव वयं पश्यामः खलु महोदय?
एकनिमिषं महोदय, अत्र इदानीं साध्यं किम्?
साध्यं स्नेहः इति गुणः एव खलु.
अस्तु, अत्र हेतुः कः?
तत्र तस्य इदानीं हेतु यत् वयं पिण्डीभावः वयं पश्यामः तदेव अस्ति.
तर्हि हेतुः पिण्डीभावः खलु?
अस्तु, पिण्डीभावः.
तर्हि पक्षः हेतुमान् भवेत् पिण्डीभावः कुत्र अस्ति?
पिष्टे अस्ति.
अस्तु, किन्तु साध्यं कुत्र अस्ति?
साध्यं जले अस्ति, तदेव प्रश्नः अस्ति जले.
किन्तु यथा जले विद्यमानस्नेहं स्व आश्रये संयुक्तसम्बन्धेन पिष्टे आगतं, तथा पिष्टे विद्यमानपिण्डीभावमपि जले आनेतुं शक्नुमः खलु स्व आश्रये संयुक्तत्वसम्बन्धेन खलु? तर्हि इदानीं हेतुः पिण्डीभावः, पिण्डीभावः कुत्र अस्ति? स्व आश्रये संयुक्तत्वसम्बन्धेन जले अस्ति.
ओ, तादृश.
तर्हि इदानीं जलः जलं हेतुमान् भवति. किन्तु अत्र उदाहरणं वक्तुं शक्यते वा?
कथं?
अस्तु, अग्रे इदानीं
तत्कारणेनैव नवनायकः नाङ्गीकुर्वन्ति इति अहं चिन्तयामि.
न न, तत्कारणेन न अङ्गीकुर्वन्ति इति नास्ति. किमर्थम् इत्युक्ते बहुत्र अत्र केवलान्वयी केवलव्यतिरेकी इति कश्चन चिन्तनमस्ति. इत्युक्ते यत्र हेतुः केवलं पक्षे एव लभ्यते, अन्यत्र यत्र कुत्रापि न लभ्यते. अत्र अन्यदपि वाक्यम् अस्माभिः अनुमानविषये अस्माभिः चिन्तितं खलु,
एकदेशी
हा अत्र इदानीं मम मनसि नास्ति, किन्तु आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाशाजन्यगुणनाशत्वात् इति लिखितं खलु, पाकजरूपनाशवत्. अत्र पाकजरूपनाशवत् इति उदाहरणं दत्तं, तर्हि तत्र कीदृश उदाहरणमिति एतत् सर्वम् अस्माभिः चिन्तितं खलु. व्यतिरेक उदाहरणं वा अन्वय उदाहरणं वा केषुचित् स्थलेषु अन्वय उदाहरणमेव न दातुं शक्यते. किमर्थम् इत्युक्ते हेतुः केवलं पक्षे एव लभ्यते, अन्यत्र यत्र कुत्रापि न लभ्यते. अस्माकं स्टाक् उदाहरणे इदानीं पक्षः अस्ति पर्वतं, पर्वतः पर्वते धूमः अस्ति, पर्वते वह्निः अपि अस्ति. महाशाला इत्युक्ते पाकशाला, पाकशाला अपि पक्षः अस्ति, पाकशालायां धूमः अस्ति, पाकशालायाम् अपि पाकशालायां वह्निः अपि अस्ति. तर्हि अत्र अन्वय उदाहरणम् उक्त्वा यथा पाकशालायाम् अस्माभिः दृष्टं तथा पर्वते अपि वह्निः अस्ति, धूमः अस्ति इति कृत्वा, धूमं दृष्ट्वा वह्निः अस्ति इति अस्माभिः वक्तुं शक्यते. किन्तु तादृशं सर्वत्र भवति, इत्युक्ते हेतुः केषुचित् स्थलेषु केवलं पक्षे एव लभ्यते, पक्षं विना अन्यत्र यत्र कुत्रापि न लभ्यते. तत्र व्यतिरेक उदाहरणम् एव वक्तव्यम्,
उष्णवत् वह्नित्वात् इति.
हा व्यतिरेक उदाहरणं, व्यतिरेक उदाहरणम् इत्युक्ते यथा अत्र नास्ति इति वक्तव्यम्. यन्नैवं तन्नैवम् इति भवति तत्र रूपं, यन्नैवं तन्नैवं यथा जलम् इति भवति. इत्युक्ते अत्र केवलं चिन्तनार्थम् एतदहं वदामि. इदानीं शीतस्पर्शः कुत्र अस्ति महोदय?
तत्र जले अस्ति.
अस्तु, जले एव शीतस्पर्शः अस्ति खलु. इदानीं शीतस्पर्शत्वं हेतुत्वेन स्वीकृत्य किमपि अनुमानं करणीयं चेत् जलं विना अन्यत्र हेतुः अस्ति इति निरूपयितुं शक्यते वा?
नास्ति, न ना, कर्तुं शक्नुमः.
हा तत्र उदाहरणमेव न वक्तुं शक्यते खलु. यदि शीतस्पर्शत्वं हेतुत्वेन स्वीकृत्य अन्यत् किमपि निरूपयितुं प्रभवामः तर्हि तत्र शीतस्पर्शत्वं केवलं जले एव अस्ति इति कृत्वा यथा इति अन्यत् यत्किमपि न वक्तुं शक्यते. तर्हि तत्र किं वदन्ति? यथा पृथिवी यन्नैवं तन्नैवम् इति वदन्ति. यथा पृथिव्यां शीतस्पर्शः नास्ति तथा इति वदन्ति. तर्हि तादृशसन्दर्भे अत्र व्यतिरेक उदाहरणमेव वक्तव्यं, यन्नैवं तन्नैवम् इति भवति वाक्यस्य आकारः. अत्र प्रकृतविषये हा वदतु.
किञ्चित् अत्र इदानीं आहत्य तत्र हेतु पिण्डिभावः अस्ति, पक्षः पिष्टः अस्ति, साध्यं स्नेहः अस्ति. तु तत्र स्नेह इति गुणः जले अस्ति इति वक्तव्यं चेत् तत्र स्नेहत्वम् इदानीं मम भ्रमः कुत्र अस्ति इत्युक्ते तत्र वह्निः उष्णः वह्नित्वात् इति स्थले तत्र उष्णः अस्ति, वह्नित्वम् अपि वह्नौ अस्ति. अत्र भवता यत् उक्तं तत्र पिण्डीभावः इति जले आनीतव्यम् इति भवान् उक्तवान्, तत्र
साध्यं यत्र अस्ति तत्र समानाधिकरण्यं भवेत् खलु, हेतुसाध्ययोः मध्ये समानाधिकरण्यं भवेत्.
तदा स्नेहः तत्र स्नेह इति तत् पृष्ठे आनेतव्यं भवति.
न स्नेहः इति साध्यं, साध्यं पक्षे अस्ति इति कृत्वा हेतुः इदानीं पक्षं प्रति आनेतव्यम्.
हेतुपिण्डीभावः अस्ति महोदय, पक्षः पिष्टः अस्ति इति.
किमर्थं पक्षः पिष्टः इति वदति?
जलं तदा
साध्यं कुत्र? अस्माकं साध्यं किं? स्नेहः खलु, साध्यं कुत्र अस्ति? तदेव पक्षः, साध्यवान् अपि भवेत् हेतुमानपि भवेत्,
तदा पिण्डीभावः जलं प्रति आनीतं, तदा
सत्यं
तदा साध्यं हे साध्यं यत्र अस्ति तदेव पक्ष तद् तदाधारेण स्नेहः इति जले अस्ति, पक्षः जलम् अस्ति.
वस्तुतः यदि साध्यमेव साध्यं यत्र अस्ति तदेव पक्षः इति वदति चेत् तत्र क्लेशः अस्ति. तत्र पक्षः कः इत्यस्य लक्षणं वक्तव्यं चेत् हेतुमत्वे सति साध्यवत्वं पक्षस्य लक्षणम्. हेतुवत् पक्षः हेतुमान् अपि भवेत् साध्यवान् अपि भवेत्, किन्तु इदानीं कार्यं निरूपणीयं खलु, कस्मिन् सन्दर्भे स्मः, कार्यकारणचिन्तने स्मः. स्नेहः इति कार्यं, पिण्डीभावः इति क्षम्यतां, स्नेहः इति कारणं, पिण्डीभावः इति कार्यं. तर्हि तत्र इदानीं मया किं कृतं, साध्यं कुत्र अस्ति, जले अस्ति इति कृत्वा तद् समान अधिकरणं, जलमेव कार्य अधिकरणम् इति मया स्वीकृतं. स्वीकृत्य कारणं येन केनापि सम्बन्धेन जलं प्रति आनीतं तावदेव. हा, किन्तु इदानीं प्रश्नस्य उत्तरं किम्?
तदस्ति, तद् पूर्वस्मिन् वाक्ये तद् लिखितम्, अहं चिन्तितवान् अत्र पूर्वस्मिन् वाक्ये, परन्तु चक्षुषा त्वचा वा अवधानविशेषे अपि एकाग्रे अपि न स्नेहः गृह्यते इति पिण्डीभावरूपकार्यविशेषेण सह अनुमातव्यः भवति इति. इदानीं पिण्डीभावरूपकार्यस्य विशेषेण तत्र अनुमानं स्वीकृत्य स्नेहः इति गुणः अस्ति इति निरूपणीयम् इति दन्तकार वदति. इदानीं तद् अहं कर्तुं प्रयत्नं कृतवान्, तत्रैव प्रश्नः आसीत् कथं करणीयम् इति. अहं चिन्तितवान् तत्कारणेन प्रायः नवनायकः एवं चिन्तयन्ति इति अहं चिन्तितवान्.
अस्तु, अत्र निगमनं किम्, अस्माकं निगमनं किम्? इदानीं वयं नव्यानां मते सन्ति वा प्राचीनानां मते सन्ति वा?
इदानीम् अत्र अस्माकं यत् पठितं तदाधारेण तत्र प्राचीनां मतं सम्यक् इति अहं चिन्तयामि. तु क्लेशः आसीत् तदेव.
किम्?
अनुमाने किञ्चित् क्लेशः अनुभूतवान्, तदेव तत्कारणेन
अस्तु. तत्र अनन्तरं पुनः प्रयत्नं कुर्वन्तु सर्वे. अनुमानवाक्यं कथं वक्तव्यम् इत्युक्ते अनुमातव्यः भवति इति लिखितमस्ति खलु अत्र. इत्युक्ते अस्मिन् परिच्छेदे किं दत्तम् अहं वदामि. स्नेहः इति गुणः जले चक्षुषा वा अन्येन येन केनापि इन्द्रियेण न गृहीतुं शक्यते इति अस्ति. तत्तु वास्तविकमस्ति. तत्र प्राचीनानां नव्यानाम् अङ्गीकारः अस्ति. स्नेहः इति गुणः जले अस्ति इति येन केनापि इन्द्रियेण साक्षात् न ज्ञातुं, प्रत्यक्षेण न ज्ञातुं शक्यते. अस्तु, तर्हि तत्र अनुमानं कर्तव्यम्. यदि अनुमानं कर्तव्यं तत्र अनुमानवाक्यं वक्तव्यं, यस्मिन् अनुमानवाक्ये हेतुः भवेत्, पक्षः भवेत्, साध्यं भवेत्, अपि च उदाहरणमपि भवेत्. तर्हि तादृश अनुमानवाक्यं रचयितुं सर्वे कृपया अत्र गृहपाठत्वेन प्रयत्नं कुर्वन्तु इति एकः भवतु. किन्तु अस्मिन् परिच्छेदे किं लिखितं ग्रन्थकारेण, नव्याः किं वदन्ति अत्र अनुवातव्यः भवति इति कृत्वा एव तैः कटाक्षितः इति. कटाक्षितः इत्युक्ते निराकृतः इति. किन्तु अनुमानेन एव इदानीम् आद्यपतनक्रियायाः गुरुत्वम् इति कारणं निरूपितं. गुरुत्वम् इति गुणः अस्ति इति अनुमानप्रमाणेन एव साधितं. तर्हि अनुमानप्रमाणेन साधनीयमिति वा इति कृत्वा स्नेहः इति गुणः त्यक्तः इति वदामश्चेत् तद्दोषाय. चतुर्विंशतिगुणेषु बहवः गुणाः सन्ति ये केवलम् अनुमानप्रमाणेन एव ज्ञायते. इत्युक्ते आत्मनि विद्यमानगुणाः सन्ति खलु, तत्र धर्म अधर्मसंस्कारः संस्कारः इति गुणः अपि अनुमानेनैव ज्ञायते, धर्मः अधर्मः इति तादृशगुणाः अपि इत्युक्ते प्रत्यक्षेन न ज्ञायते भवतु, किन्तु तस्मिन् विषये किमर्थं ग्रन्थकारेण चिन्तितम् इति चेत् ग्रन्थकारः किं वक्तुम् इच्छति, इदानीं स्नेहः जलमात्रवृत्तिः इति पठितं खलु, कुत्र स्नेहः लभ्यते, केवलं जले एव लभ्यते, तर्हि यथा गन्धं स्वीकृत्य पृथिव्याः लक्षणं कृतं, गन्धवती पृथिवी गन्धवत्वं पृथिव्याः लक्षणम् इति, किमर्थम् अत्र गन्धः केवलं पृथिव्यामेव लभ्यते इति कृत्वा गन्धं स्वीकृत्य पृथिव्याः लक्षणं कृतं, तथा स्नेहं स्वीकृत्य अपि स्नेहवती स्नेहवत् जलं, नो चेत् स्नेहवत्वं जलस्य लक्षणम् इति, किमर्थं जलस्य लक्षणं न कृतं, शीतस्पर्शवत्वं स्वीकृत्य एव शीतस्पर्शवत्यः आपः इति जलस्य लक्षणं कृतं, किमर्थं स्नेहं स्वीकृत्य न कृतम् इति चेत् स्नेहाख्यगुणः स्वयम् अत्र अनुमानेन एव ज्ञायते, किन्तु शीतस्पर्शः केवलं जले लभ्यते अपि च प्रत्यक्षेन ज्ञायते, त्वचा ज्ञातुं शक्नुमः शीतस्पर्शः इति कृत्वा प्रत्यक्षप्रमाणं बलवान् अस्ति अनुमानप्रमाणापेक्षया, प्रत्यक्षेन ज्ञायते इति कृत्वा तादृशधर्मः स्वीकृतः शीतस्पर्शवत्यः आपः इति, शीतस्पर्शवत्वं स्वीकृत्य एव आपः लक्षणं कृतं, न तु स्नेहत्वं स्वीकृत्य इति अत्र केवलं चिन्तनार्थं सः वदति, किन्तु तस्मादुपरि इदानीं नव्याः त्यजन्ति चेत् स्नेहाख्यगुणः त्यजन्ति चेत् पिण्डीभावं प्रति ते किं कारणं वदन्ति, पिण्डीभावः तु दृश्यते, विलक्षणसंयोगः दृश्यते एव, तस्य कारणं किमपि भवेत्, तर्हि तत्र नव्याः किं वदन्ति इति ग्रन्थकारेण अत्र न उक्तम्, तर्हि मम पक्षः कः इति चेत् प्राचीनानां मतं यत्किमस्ति यदस्ति अत्र स्नेहाख्यगुणः नास्ति चेत् पिण्डीभावपिष्टे पिण्डीभावं न जायतेव, पिण्डीभावम् इति सामान्यसंयोगः नास्ति, यः संयोगः केवलं क्रियया जायते, इत्युक्ते यदा घटं उन्नीय भूतले स्थापयामश्चेत् क्रियया संयोगः जायते, किन्तु तादृशम् इदानीं चूर्णे जलमिश्रणम् अकृत्वा यदि केवलं क्रियां कुर्मश्चेत् तत्र पिण्डीभावः न जायते एव, तर्हि जले किमपि गुणः भवेत् येन एव पिष्टे पिण्डीभावः जायते, तस्मिन् विषये नव्याः किं वदन्ति इति अत्र न उक्तम् इति एकः, द्वितीयं तु अत्र अनुमानवाक्यं किम् इति अपि न उक्तम्। अस्तु, तर्हि अनुमानवाक्यं किम् इति वयमेव अत्र ऊहां कर्तुं शक्नुमः, समीचीनबोधः जायते तेन अनुमानवाक्यप्रयासेन। अस्तु, समीचीनचिन्तनं जातं, तर्हि अग्रे गच्छेम। इदानीम् एतावत् प्रश्नाः सन्ति वा? अस्तु, अग्रिम गुणः अस्ति शब्दः।
एकः प्रश्नः अत्र दलसार्थक्ये यदा वयं कृतवन्तः यत्र दलद्वयम् अस्ति दारणनिष्ठता, एकनिमिषं महोदय, तत्र चूर्णादिपिण्डीभावहेतुत्वे हेतुत्वं स्वीकुर्मश्चेत् तत्र पिष्टे अतिव्याप्तिः अस्ति इति उक्तं खलु महोदय, तत्र जले अपि भवति वा महोदय अतिव्याप्ति, जलमिति द्रव्यम् अस्ति तदपि वक्तुं शक्नुमः वा?
किन्तु यदि चूर्णं नो चेत् पिष्टः इति वदामश्चेत् साक्षात् अस्ति खलु तत्र,
सत्यं
किन्तु तत्र अत्र परम्परासम्बन्धः वक्तव्यः तावदेव, स्व आश्रयसंयुक्तत्वसम्बन्धेन पिण्डीभावं जले अस्ति इति कृत्वा जले अपि अतिव्याप्तिः निरूपयितुं शक्नुमः, किन्तु वस्तुतः परम्परासम्बन्धः कल्पितः एव खलु. पिण्डीभावः कुत्र अस्ति? केवलं साक्षात् पिष्टे अस्ति. तर्हि पिष्टे अतिव्याप्तिः भवति इति वदामश्चेत् पर्याप्तं भवति. एकमेव सन्दर्भः
स्पष्टः अस्ति तु मया चिन्तनसमये पिष्टं न आगतं, जलम् इति न, तदनन्तरमेव दृष्टवान्. मम प्रश्नः आसीत्. अस्तु
अस्तु, धन्यवादः. तर्हि शब्दनिरूपणं रमेश महोदय वदति वा, शब्दस्य लक्षणं किम् इति?
आम् महोदय. श्रोत्रग्राह ग्राह्यो गुणः शब्दः.
अत्र ग्राह्यम् इति पदेन किं किं बोध्यम्?
यत् यत् श्रोत्रेन्द्रियग्राह्यते तत् यत् प्रत्यक्षम् अस्ति श्रोत्रेन्द्रियद्वारा तद् शब्दः इति.
किन्तु ग्राह्यम् इति पदस्य लक्षणवाक्यरूपेण अस्माभिः अधीतं खलु? जन्यप्रत्यक्षविषयत्वम् इति अस्ति. ग्राह्य इति पदस्य विषये 128 पेज् मध्ये चिन्तनमस्ति. तर्हि सर्वे अत्र अन्यत्र स्थापयन्तु. जन्यप्रत्यक्षविषयत्वम् इति ग्राह्यम् इति पदस्य लक्षणमस्ति. चक्षुर्मात्रग्राह्यम् इत्यत्र मातृपदोत्तरवर्ती ग्राह्य इति पदमस्ति, अन्तिमपङ्क्तौ अस्ति, तदर्थः जन्यप्रत्यक्षविषयत्वम् इति. अस्तु भवतु, तर्हि इदानीम् अत्र कति दलानि सन्ति?
अत्र द्वे दले सः महोदय, श्रोत्रग्राह्य इति एकं दलं, गुणत्वम् इति द्वितीयदलम्.
अस्तु, दलसार्थं किं करोतु?
यदि केवलं श्रोत्रग्राह्यत्वं शब्दः इति वदामिश्चेत् तर्हि तत्र शब्दत्वे अपि अतिव्याप्तिः भवति. शब्दत्वम् इति जातौ अतिव्याप्तिः भवति.
उत्तमम्.
यदि केवलं गुणत्वम् इति स्वीकुर्मश्चेत् अन्येषु गुणेषु अतिव्याप्तिः भवति.
उत्तमं. तर्हि मिलित्वा श्रोत्रग्राह्यत्वे सति गुणत्वं शब्दस्य लक्षणम् इति दलद्वयं. हा, तस्य वृत्तित्वं कुत्र अस्ति?
आकाशमात्रवृत्तिः.
हा, केवलम् आकाशे एव लभ्यते. तर्हि इदानीम् आकाशस्य लक्षणं किं मनसि अस्ति वा?
न महोदय.
शब्दगुणकम् आकाशम्.
हा, शब्दगुणकम् आकाशम्. शब्दः इति गुणः केवलम् अत्र आकाशे एव लभ्यते इति कृत्वा, यथा गन्धवती पृथिवी इति पृथिव्याः लक्षणं कृतं, तथा शब्दं स्वीकृत्य आकाशः निरूपितः. अपि च आकाशः अत्र केन प्रमाणेन निरूपितं? रमेशमहोदय वदतु.
आकाशः अनुमानेन निरूपितम्.
हा, उत्तमं. यद्यपि शब्दः इति गुणः आकाशे विद्यमानगुणः प्रत्यक्षेन श्रोत्रेन्द्रियेण ज्ञायते, तथापि तस्य आधारीभूतद्रव्यं न ज्ञायते. श्रोत्रेन्द्रियं केवलं गुणस्य एव ग्रहणं करोति, न तु तस्य आधारीभूतद्रव्यस्य. इति कृत्वा अत्र अनुमानेनैव आकाशः निरूपितः. तर्हि इदानीं शब्दं श्रूयते, तस्य आधारः किमपि भवेत्, स च आधारः अन्यानि द्रव्याणि यत्किमपि न भवितुमर्हति इति कृत्वा अत्र आकाशः इति द्रव्यम् अस्ति इति अत्र अत्र उक्तमस्ति. तर्हि तस्मिन् विषये अपि अनुमानवाक्यं कथं भवेत् इति गृहपाठत्वेन चिन्तयितुम् अर्हति. अस्तु, आकाशमात्रवृत्तिः कति विधानि सन्ति, कति विधाः सन्ति शब्दः?
द्विविधः शब्दः, द्विविधः. एकं ध्वनियात्मकः, एकं वर्णात्मकः इति. वर्णात्मकः इत्युक्ते यत् यत् ज्ञानं यस्य शब्दस्य अर्थमस्ति तद् वर्णात्मकशब्दः, यस्मिन् न अस्ति तद् ध्वनियात्मकः.
अस्तु, अत्र उदाहरणमस्ति संस्कृतभाषादिरूपः वर्णात्मकः, ध्वन्यात्मकः भेर्यादौ इति खलु. अस्तु, समीचीनं. तर्हि इदानीं वर्षा भगिनी वदतु, प्राप्यकारित्वम्, इन्द्रियाणां प्राप्यकारित्वं, प्राप्यकारित्वम् इत्युक्ते किम्?
यदि इन्द्रियेण इन्द्रियेण तत् ज्ञानं प्राप्तुं शक्यते, तत् प्राप्यकारित्वं वा?
नास्ति,
सम्यक्तया न जानामि महोदय तत्.
अस्तु, श्रीराममहोदय वदतु.
अत्र चिन्तयामि, तत्र यदा इन्द्रियप्रत्यक्षं भवति तत्र केनापि सम्बन्धेन भवति इति, इन्द्रियाणां प्राप्त्यकारित्वम् इति अहं चिन्तयामि महोदय. तत्र उदाहरणत्वेन इदानीं चक्षुरिन्द्रियं घटं पश्यति, घटस्य घटं गृह्यते चेत् तत्र चक्षुरिन्द्रियः, चक्षुरिन्द्रियं तत्र घटेन संयुक्तः भवति, तदा एव तत्र घटज्ञानं भवति इति. तत्र केनापि सम्बन्धं विषयेण भवति इन्द्रियाणां, तदेव इन्द्रियाणां प्राप्यकारित्वम् इति अहं चिन्तयामि.
तर्हि अत्र प्राप्यकारित्वम् इति पदं स्वीकृत्य किञ्चित् उच्चैः चिन्तयतु. प्राप्य इति पदमस्ति, कारित्वम् इति पदमस्ति.
प्राप्य प्राप्यकारि कारित्वं प्रायः निजन्तम् इति अहं चिन्तयामि महोदय. कारित्वं कारयति, करोति, कारयति इति
सत्यं
निजन्तं. प्राप्नोति एवं प्राप्य इति अपि निजन्तम् अस्ति अहं चिन्तयामि.
प्राप्य इति निजन्तं वा?
निजन्तेन भवति वा? प्राप्य प्राप्नोति.
ग्राह्यं, ग्राह्यं, जन्यं,
तद् यट्ट प्रयत्नं प्रत्ययं.
अस्तु, शिवराममहोदय किञ्चित् सहायं करोतु. अत्र भवतः चिन्तनं किं? प्राप्यकारित्वम् अत्र प्रथमं प्राप्यकारी इति पदमस्ति. प्राप्य कारी यः अस्ति तस्मिन् विद्यमानधर्मः अस्ति प्राप्यकारित्वम्. तर्हि प्राप्यकारी इति पदं कथं लभ्यते? ओ, शिवराममहोदय नास्ति वा? अस्तु, मेहुल् महोदय भवान् चिन्तयति वा प्राप्यकारी?
अहं प्रयत्नं करोमि, सम्यक्तया न जानामि, परन्तु इन्द्रियम्, इन्द्रियाणि इति प्राप्यकारी भवति, तेषाम् एव प्राप्यकारित्वम् अस्ति. तर्हि सर्वाणि इन्द्रियाणि प्राप्यकारी भवति.
किन्तु अत्र अत्र कारी इति पदमस्ति, प्राप्यं कारी तस्मिन् विद्यमानधर्मः अस्ति प्राप्यकारित्वम्। अस्तु, तर्हि प्राप्यकारित्वम् इति पदेन किम् अवगन्तव्यमस्ति?
प्राप्यं कारयति इति प्राप्यकार्यं कार्य वा महोदय, तादृशं भवति वा?
हा, भवितुमर्हति। ममापि इदानीं तावत् स्पष्टता नास्ति, अनन्तरम् अग्रिमवर्गे दृष्ट्वा वदामि। प्राप्यकारी
महोदय, अत्र कर्मणियन् इत्यस्य योजनेन कारी इति कारयति इति कारी लभ्यते किल?
न न, कर्मणि अण् इत्यनेन कारः भवति खलु, कुम्भकारः, कुम्भं करोति इति कुम्भकारः, तत्र कर्मणि अण्, किन्तु कारी इति भिन्नशब्दमस्ति।
आं महोदय,
तद् अस्माभिः पठितं किन्तु मनसि नागच्छति इदानीम्, अनन्तरं दृष्ट्वा वदामि। भवतु, तर्हि इदानीं प्राप्यकारित्वम् अत्र 129th पेज् मध्ये दत्तमस्ति, अन्तिमपरिच्छेदे। सम्बन्धग्राहकत्वम् एव इन्द्रियाणां प्राप्यकारित्वम् इति शास्त्रे प्रसिद्धम् इति। तर्हि प्राप्यकारित्वम् इत्युक्ते किम् इति चेत् सम्बन्धग्राहकत्वम् इति वक्तव्यम्। तर्हि इदानीं सम्बन्धग्राहकत्वम् इत्युक्ते किम् इति चिन्तयन्तु। सम्बन्धग्राहकत्वं मेहुल् महोदय चिन्तयतु।
यद् भवान् उक्तवान् अत्र अस्ति, इन्द्रियस्य इन्द्रियेण यः प्रत्यक्षज्ञानं भवति तत्र इन्द्रियेण सह किमपि सम्बन्धः भवति चेदेव तस्य प्रत्यक्षज्ञानं भवति, अतः यत् सम्बन्धः अस्ति तस्यापि ग्राहक ग्रहणं भवति इन्द्रिय इन्द्रिये इन्द्रियाणां प्राप्यकारित्वम् इत्युक्ते सम्बद्धग्राहकत्वम्।
अत्र तर्हि प्रथमं महोदय, सम्बन्धग्राहकत्वम् इति पदस्य समस्तपदस्य विग्रहवाक्यं वदतु।
आम् आम्, सम्बन्धग्राहकः इति प्रथममस्ति, तत्र सम्बन्धस्य ग्राहकः इति भवति।
उत्तमं, सम्बन्धस्य ग्राहकः इति अस्ति। अत्र षष्ठीविभक्तिः कथं लब्धम्?
सम्बन्धस्य षष्टि तत्पुरुषः अस्ति।
सत्यं, सम्बन्धस्य ग्राहकः सम्बन्धग्राहकः इति षष्ठी तत्पुरुषः, किन्तु अत्र षष्ठीविभक्तिः कथं लब्धम्?
वक्तुं न जानामि महोदय, क्षम्यताम्।
अस्तु, वर्षा भगिनी वदतु।
अत्र नूल् प्रत्ययः अस्ति, अतः तत् कर्तृकर्मणौ कृति इति सूत्रेण षष्ठी लभ्यते।
उत्तमं, नूल् इति प्रत्ययेन एव कृत् प्रत्ययेन एव ग्राहकः इति पदं सिद्धं। तर्हि कृतिपरे कृत् कृदन्त शब्दे परे पूर्वं स्थितस्य शब्दस्य षष्ठी विभक्तिः भवति कर्तृकर्मणोः कृति इति सूत्रेण। तर्हि इदानीं सम्बन्धः कर्ता वा कर्म वा? वर्षा भगिनी वदतु।
महोदय पुनः एकवारं पृच्छतु।
सम्बन्धस्य ग्राहकः कर्तृकर्मणोः कृति इति सूत्रेण एव सम्बन्धस्य इति पदस्य षष्ठी, अत्र कर्म वा सम्बन्धः, कर्म वा कर्ता वा?
कर्म महोदय।
उत्तमं, कर्मपदमस्ति। अस्तु, तर्हि सम्बन्धस्य ग्राहकः इति सम्बन्धग्राहकः, तर्हि सम्बन्धस्य ग्राहकः सम्बन्धस्य ग्राहकत्वम् एव इन्द्रियाणां प्रत्यक्ष प्राप्यकारित्वम् इति उक्तं। तर्हि इन्द्रियाणि किं कुर्वन्ति इति चेत् सम्बन्धस्य ग्रहणं कुर्वन्ति। तर्हि तत्र सम्बन्धः कः, कयोः मध्ये सम्बन्धः इति चिन्तनीयं, तस्मिन् विषये वदतु श्रीराम महोदय, वदतु। यदि द्वयोः मध्ये सम्बन्धः अस्ति तस्य ग्रहणं करोति इन्द्रियं, तदा एव इन्द्रियं सम्बन्धग्राहकम् इति वक्तुं शक्यते खलु?
सत्यं महोदय. तत्र प्रत्यक्षज्ञानम् अस्ति, तदनन्तरं विषयः अस्ति. इदानीं विषयस्य ग्रहणं तत्र इन्द्रियेण भवति. तत्र सम्बन्धः इदानीं चक्षुरिन्द्रियं विषय घटः अस्ति चेत् तयोः तत्र सम्बन्धः भवति. इदानीं सम्बन्धस्य संयोगसम्बन्धस्य ग्राहकः कथम् इन्द्रियं भवति इति अहं न जानामि. कथं
अतः एव मया पृष्टं, तयोः मध्ये सम्बन्धः इन्द्रियं गृह्यते इन्द्रियेण गृह्यते इति.
अत्र गुणस्य यः आश्रयः अस्ति अथवा क्रियावान् यः अस्ति तेन एव इन्द्रियेण सम्बन्धः भवति.
तर्हि तयोः मध्ये सम्बन्धः
द्रव्य अपि च इन्द्रियोः मध्ये सम्बन्धः द्रव्य अपि
उत्तमं. द्रव्यम् अपि च इन्द्रियम् अनयोः मध्ये सम्बन्धः यदा अस्ति तस्य सम्बन्धस्य ग्राहकः भवति इन्द्रियमेव. तर्हि इदानीं घटभूतलयोः मध्ये यः सम्बन्धः अस्ति तस्य ग्राहकः इति नास्ति. इत्युक्ते इन्द्रियम् एकं सम्बन्धी भवति, अन्यः इदानीं यः कोऽपि द्रव्यं वा द्रव्ये विद्यमानगुणः वा यत्किमपि भवतु. अत्र वाक्यं पश्यतु 119th रो पेज् मध्ये अन्तिमपरिच्छेदे एतादृशविवरणे इदम् आगतं यत् सर्वत्र यस्य द्रव्यस्य प्रत्यक्षम् इन्द्रियेण जननीयं तद्द्रव्यं ग्राहकेण इन्द्रियेण सम्बद्धं चेत् एव द्रव्यप्रत्यक्षं जायते इति साक्षात् अत्र उक्तं. तर्हि द्रव्यम् अपि च इन्द्रियं द्वयोः मध्ये सम्बन्धः भवेत् तस्य सम्बन्धस्य ग्राहकं भवति इन्द्रियम्. इत्युक्ते स्वस्य सम्बन्धस्य ग्राहकं भवति इन्द्रियम् इति कृत्वा अत्र सम्बन्धग्राहकत्वम् एव इन्द्रियप्राप्यकारित्वम् इति शास्त्रे प्रसिद्धं. तर्हि प्राप्यकारित्वम् इत्युक्ते किं? सम्बन्धग्राहकत्वं. सम्बन्धग्राहकत्वं कुत्र अस्ति? इन्द्रिये अस्ति. कीदृशसम्बन्धः? तयोः मध्ये सम्बन्धः इति चेत् एकस्मिन् पार्श्वे इन्द्रियं भवेत्, अन्यस्मिन् पार्श्वे द्रव्यं भवेत्. द्रव्य इन्द्रियोः मध्ये यः सम्बन्धः अस्ति तस्य ग्रहणम् इन्द्रियम् एव करोति इति एव इन्द्रियस्य वैविध्य विशेषः अस्ति. विशिष्टत्वम् इन्द्रियम् अत्र पार्थिव द्रव्यं पार्थिवद्रव्यस्य विषये यथा अस्माभिः पठितं तत्र त्रिविधभेदः नित्यम् अनित्यम् इति नित्यत्वं कालम् अधिकृत्य भेदद्वयं कृतं, पुनः अनित्याः त्रिविधाः इन्द्रिय विषय शरीरभेदात् इति उक्तं खलु. तर्हि विषयः अपि पार्थिवद्रव्यमस्ति, इन्द्रियमपि पार्थिवद्रव्यमस्ति, शरीरमपि पार्थिवद्रव्यमस्ति. तर्हि इदानीम् अस्माभिः किं चिन्तयितुं शक्यते? विषयः पार्थिवविषयः यदस्ति घटः, पार्थिव इन्द्रियं यदस्ति घ्राणेन्द्रियम्, अपि च पार्थिवशरीरं यदस्ति अस्माकं शरीरं, तयोः मध्ये अन्योन्यभेदः कः इति गृहपाठत्वेन सर्वे चिन्तयन्ति. तादृशचिन्तनं पूर्वेण कृतं, किन्तु इदानीं तावत् सामर्थ्यं लब्धम् इति कृत्वा तस्मिन् विषये चिन्तयितुं शक्यते. तर्हि यद्यपि घटः अपि पार्थिवद्रव्यमस्ति, घ्राणेन्द्रियमपि पार्थिवद्रव्यमस्ति, अस्माकं शरीरमपि पार्थिव द्रव्यमस्ति, किन्तु तत्र तयोः मध्ये भेदः कः इति चिन्तयामश्चेत् समीचीनबोधः जायते. इन्द्रियत्वं यत्र अस्ति, इन्द्रियत्वम् इत्युक्ते किम् इति चेत् स्वस्य सम्बन्धः अन्येन सह स्वस्य सम्बन्धः येन ग्रहीतुं शक्यते तदेव इन्द्रियम् इत्युक्ते शरीरः इदानीं भूतले अस्ति इति चिन्तयतु शरीरः भूतले अस्ति तर्हि इन्द्रिय शरीरमपि पार्थिवमिति कृत्वा स्वस्य सम्बन्धं शरीरेण ग्रहीतुं शक्यते इति पृष्टे सति न शरीरेण स्वस्य सम्बन्धः स्वस्य भूतलेन सह सम्बन्धः यदस्ति तस्य ग्रहणं शरीरेण न ग्रहीतुं शक्यते शरीरे विद्यमानत्वगिन्द्रियेण एव तादृशग्रहणशक्तिः अस्ति तादृशग्रहणशक्तिः अपि च त्वगिन्द्रियं कुत्र अस्ति शरीरे अस्ति त्वगिन्द्रियं कुत्र अस्ति इदानीं भूतले अपि अस्ति तर्हि त्वगिन्द्रियं भूतलेन सह तस्य संयोगसम्बन्धः यदस्ति तस्यापि ग्रहणं कर्तुं शक्यते त्वगिन्द्रियम् इदानीं शरीरे अस्ति तस्यापि ग्रहणं कर्तुं शक्यते इति कृत्वा इदानीम् इन्द्रियं मध्ये भवति इति कृत्वा इदानीं शरीरं भूतले अस्ति इति तादृशज्ञानम् उत्पद्यते घटः अपि भूतले अस्ति किन्तु घटः भूतले अस्ति इति घटं जानाति वा न जानाति किमर्थं घटस्य इन्द्रियं नास्ति त्वगिन्द्रियं घटे नास्ति तर्हि वयमेव अत्र चक्षुरिन्द्रियेण घटं भूतले अस्ति इति वक्तुं शक्नुमः कथम् इति चेत् इदानीं चक्षुरिन्द्रियं बहिः गत्वा घटेन सह संयुक्तः भवति भूतलेन सह अपि संयुक्तः भवति इति कृत्वा इदानीम् अपि च घटभूतलयोः मध्ये यः संयोगः अस्ति तेन सह अपि चक्षुरिन्द्रियस्य संयोगः भवति एव इति कृत्वा एव इदानीं घटः भूतले अस्ति इति चक्षुषा ज्ञातुं शक्यते इति तादृशचिन्तनं कर्तुं शक्यते अस्तु समयः जातः अत्र स्थगयामः तर्हि अत्र गृहपाठत्रयम् अस्ति प्रथमं किम् आकाशः शब्दगुणकम् आकाशम् इत्यत्र आकाशः अनुमानेन निरूपितः तत्र अनुमानवाक्यं किम् इति चिन्तनीयं पिण्डीभावं प्रति स्नेहः कारणं तत्रापि अनुमातव्यः स्नेहः अनुमातव्यः इति उक्तं तर्हि तत्र अनुमानवाक्यं किम् इति द्वितीयं तृतीयं तु इदानीं सम्बन्धग्राहकत्वम् इति तर्हि घटः इन्द्रियं ग्राणेन्द्रियम् अपि च शरीरं तयोः मध्ये भेदः कः इत्यस्मिन् विषये अपि चिन्तनीयम् अस्तु अत्र स्थगामः सर्वेभ्यो नमस्कारः धन्यवादाश्च